आस्तुत्तर सदसी सिमर हिस्टिवाइंग सिलर भक्ति सिद्धांत सरस्वती गोस्वामी महाराज प्रभुपाद की जय। अनंत कोटि वैष्णव गोविंद की जय। इस्कान गुरु गोविंद की जय। इस्कान बीबीटी फाउंडर आचार्य शिल प्रभुपाद की जय। नामाचार्य शिल हरिदास ठाकुर की जय। प्रेम श्री गो श्री कृष्ण थे चंद्र प्रभु निचानंद श्री अपेट राधा शिवासरी गौर भक्तविंद की जय। श्री श्री राधा कृष्ण गोप गोपी गो श्याम कुंड राधा कुंड गिर गोवर्धन की जय। वृंदावन धाम की जय। मयूर धाम की जय। भक्ति देवी की जय। तुलसी महारानी की जय। कंठराजिमात भागवताम की जय। गौर प्रेम रे सामवेत भक्तविंद की जय। All glories to the assembled devotees. All glories to the assembled devotees. All glories to the assembled devotees. नमो भगवते वासुदेवाय। ओम नमो भगवते वासुदेवाय। ओम नमो भगवते वासुदेवाय। We are reading from Srimad Bhagavatam, 4th canto, chapter 16, text 20. अयम् भुवः मण्डलम् आ उदाय अर्देः गुप्ता एक वीरः आस्थाय जैचं रथम् चापः पायस्यते दक्षिणतः यथा अर्कः। अयं भुवो मण्डलम् उदयाते अयं भुवो मण्डलम् उदयाते उक्तैकवीरो नरदेवनाथः उक्तैकवीरो नरदेवनाथः आस्थाय चैचं रथम् अत्तचापः आस्थाय चैत्रं रथम् अत्तचापः पर्यास्यते दक्षिणतो यथार्कः पर्यास्यते दक्षिणतो यथार्कः आस्थाय चैत्रं रथम् अत्तचापः आर्यस्यते दक्षिणतो यथार्कः आ अयम मंडलम हो जाते उठाए कबीर नरदेव नाथ आस्थाय चैत्रम नचम आत्मचाप यते दक्षिणथो यथाक अयम भुवो मंडलमोदयाते गुप्ताय कबीर नरदेव नाथ आस्थाय चैत्रामृतम् अत्तथापः आयस्यते दक्षिणतो यथाकः अयम् भुवो मण्डलमोदयाते गोप्ताय कबीर नरदेव नाथ आस्थाय चैत्रामृतम् अत्तचापः आयस्यते दक्षिणतो यथाकः At least one. Ayam guvo mandalam utayate Akkariro narateva nataha Astaya chaitam ratam attachapa आयस्यते दक्षो यथाकः दिस किंग भुवः ऑफ द वर्ल्ड मंडलम द ग्लोब आ उदाय अर्थे फ्रॉम द माउंटेन Where the first appearance of the sun is visible. Which mountain is that? Cannot guess it, we will hear. Huh? Himalayas. We will hear that later, of course. Explain, Prabhupada explains. And the purport. Gupta will protect Eka. Uniquely, viraha, powerful, heroic, Naradeva, of all kings, gods in human society, Nathaha, the master, Asthaya, being situated on, Jaitram, victorious. Ratham, his chariot. Attachapaha, he will circumambulate. Dakshinataha, from the southern side. Yatha, like. Arkaha, the sun. Translation.